इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। बिहार विधानसभा निर्वाचनाय सर्वेषां त्रिचत्वारिंशोत्तर द्विशतं यावत् विधानसभा क्षेत्राणां कृते मतानां गणना शान्तिपूर्वकं प्रचलति। सत्तारूढ एनडीए इति राष्ट्रीय जनतांत्रिक गठबंधनम् प्रचंड विजयस्य दिशायाम् अग्रे अस्ति। भाजपा दलस्य प्रत्याशी तथा उपमुख्यमंत्री सम्राट चौधरी तारापुर आसनं विजितवान्। राघोपुर आसने महागठबंधन पक्षस्य मुख्यमंत्री पदस्य प्रत्याशी आरजेडी दलस्य नेता च तेजस्वी प्रसाद यादव विजितवान्। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमंत्री नरेन्द्र मोदी, भाजपाध्यक्षः जगत प्रकाश नड्डा, दलस्य वरिष्ठः नेता अमित शाहः च बिहारस्य जनान् ऐतिहासिका भूतपूर्वाय च जनादेशाय धन्यवादं प्रदत्तवन्तः। अपि च क्रिकेट क्रीडायां कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे दक्षिणाफ्रिका विरुद्धस्य प्रथम निकष क्रीडायाः प्रथमे दिने भारतस्य आधिपत्यं वर्तते। अथ वार्ताः विस्तरेण। बिहार विधानसभा निर्वाचनाय सर्वेषां त्रिचत्वारिंशोत्तर द्विशतं यावत् विधानसभा क्षेत्राणां कृते मतानां गणना शान्तिपूर्वकं प्रचलति। अन्तिमसूचना प्राप्तिं यावत् उपलभ्यमानानि परिणामानि सूचयन्ति यत् सत्तारूढ एनडीए इति राष्ट्रिय जनतांत्रिक गठबंधनं प्रचंड विजयस्य दिशायाम् अग्रे अस्ति। एनडीए पक्ष षड्सप्तति आसनानि जित्वा अष्टाविंशत्यधिकैकासनेषु अग्रे अस्ति। आरजेडी दलस्य नेतृत्वे महागठबंधनं केवलं अष्टासनानि जित्वा पञ्चविंशति आसनेषु अग्रे अस्ति। अन्यैः त्रीणि आसनानि विजित्य त्रिषु आसनेषु अग्रे सन्ति। सर्वेषां त्रिचत्वारिंशोत्तर द्विशतासनानां कृते उपलभ्यमानानां नवीनतम प्रवृत्तेः अनुसारं भाजपेति दलं एकचत्वारिंशत् आसनानि जित्वा एकपञ्चाशत् आसनेषु अग्रे अस्ति। जेडीयू दलं त्रयोविंशति आसनानि जित्वा एकषष्टि आसनेषु अग्रे अस्ति। एलजेपी दलं चत्वारि आसनानि जित्वा पञ्चदश आसनेषु अग्रे अस्ति। एचएएम दलं एकम् आसनं जित्वा चतुर्षु आसनेषु अग्रे अस्ति। आरएलएम दलं चत्वारि आसनेषु अग्रे अस्ति। आरजेडी षड् आसनानि जित्वा ऊनविंशति आसनेषु अग्रे अस्ति। कांग्रेस दलं एकं स्थानं जित्वा चतुर्षु आसनेषु अग्रे अस्ति। एआईएमआईएम दलं त्रीणि आसनानि जित्वा द्वयोः आसनयोः अग्रे अस्ति। राघोपुरा आसने महागठबंधन पक्षस्य मुख्यमंत्री पदस्य प्रत्याशी आरजेडी दलस्य नेता च तेजस्वी प्रसाद यादव विजितवान्। जनशक्ति जनता दलस्य नेता तथा भ्राता च तेज प्रताप यादव महुआ क्षेत्रात् एलजेपी तथा आरजेडी दलस्य प्रत्याशिनः पश्चात् तृतीय स्थाने अस्ति। भाजपा दलस्य प्रत्याशी तथा उपमुख्यमंत्री सम्राट चौधरी तारापुर आसनं विजितवान्। विजय कुमार सिन्हा लखीसराय आसनात् अग्रे अस्ति। अलीनगर क्षेत्रे भाजपेति दलस्य मैथिली ठाकुर विजितवती। भाजपेति दलस्य वरिष्ठ नेता मंगल पांडे च शिवानक क्षेत्रे अग्रे अस्ति। तत्रैव सप्त राज्यानां अष्टसु निर्वाचन क्षेत्रेषु आयोजितेषु विधानसभायाः उपनिर्वाचने कांग्रेस दलं द्वे आसने विजितवान्। भाजपेति दलं एकम् आसनं जित्वा एकस्मिन् आसने अग्रे अस्ति। आम आदमी दलं पीडीपी मिजो नेशनल फ्रंट इत्येतत् दलं च एकमकं स्थानं प्राप्तवन्तः। जेएमएम एकस्मिन् आसने अग्रे अस्ति। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमंत्री नरेन्द्र मोदी, भाजपाध्यक्षः जगत प्रकाश नड्डा, दलस्य वरिष्ठः नेता अमित शाहः च बिहारस्य जनान् ऐतिहासिका भूतपूर्वाय जनादेशाय धन्यवादं प्रदत्तवन्तः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मूवर्या अद्य बालदिवसस्यावसरे राष्ट्रपतिभवनस्य सांस्कृतिक केन्द्रे विविध विद्यालयानां संघटनानां च बालकैः सह संवादं कृतवती। सामाजिकान्तर्जालीय सन्देशे राष्ट्रपतिः अवदत् यत् बालाः राष्ट्रस्य भविष्याः सन्ति, तान् आत्मविश्वासयुक्ताः उत्तरदायिनः च नागरिकाः कर्तुं प्रयत्नाः करणीयाः। राष्ट्रपतिः बालकैः सह व्यतीतानि आनन्दपूर्णानि क्षणानि प्रसारितवती, तेषु केचन वन्दे मातरं गीतं गीतवन्तः, काव्यानि पठितवन्तश्च। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य आन्ध्रप्रदेशस्य विशाखापत्तनं नगरे 25-2000 30तमं CII सहभागित्व शिखर सम्मेलनम् उद्घाटितवान्। अस्मिन् अवसरे उपराष्ट्रपतिः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं द्रुतगत्या समृद्धराष्ट्ररूपेण उद्भूतमस्ति इति। आन्ध्रप्रदेशं भारतस्य सर्वोत्तमनिवेशस्थानेषु अन्यतमम् इति प्रवदन् सः अवदत् यत् केन्द्रराज्यं च उभौ सामञ्जस्येन कार्यं कुर्वन्तः, सुदृढानि लक्ष्यानि च प्राप्तवन्तौ इति। प्रधानमन्त्री नरेन्द्रमोदी श्वः गुजरातराज्यस्य यात्रायां भविष्यति। यात्रावधौ श्रीमोदी सूरतनगरे निर्माणाधीनं बुलेट रेल स्थानकं गत्वा मुम्बई अहमदाबाद द्रुत रेलमार्गस्य प्रगत्याः समीक्षां करिष्यति। पश्चात् प्रधानमन्त्री नर्मदामण्डलस्य देवमोगरा मन्दिरे पूजार्चनां च विधास्यति। सः डेडियापाडा अपि गमिष्यति, तथा च धरती आबा भगवान बिरसा मुंडा वर्यस्य सार्धैकशततमस्य जन्मदिवसस्य अवसरे आयोजिते कार्यक्रमे भागमपि भजिष्यति। गुजरात राज्यस्य द्विदिवसीय यात्रायां केन्द्रीय मन्त्री डॉ मनसुख मांडवीयः अद्य राजकोट पोरबन्दर नगरयोः मध्ये राजकोट रेल स्थानकात् विशिष्टं रेलयानं हरितध्वजं प्रदर्शितवान्। श्रीमांडवीयः अवदत् यत् राजकोट पोरबन्दरयोः मध्ये नूतनयोः रेल स्थानीय रेलयानयोः आरम्भेन सौराष्ट्रप्रदेशस्य विकासाय इतोप्यधिकं प्रोत्साहनं प्राप्स्यते।
राजकोट से पोरबंदर के लिए दो नई ट्रेन का प्रारंभ हो रहा है। ये दो ट्रेन नई चालू होने से पोरबंदर और राजकोट के बीच में मुसाफरी सस्ती होगी, सुविधा युक्त होगी। राजकोट और पोरबंदर के बीच में कामकाज करने वाले लोगों के लिए, अप डाउन करने वाले लोगों के लिए भी फायदा होगा।
विदेश मंत्री डॉक्टर एस जयशंकर कनाडा देशे G7 विदेश मंत्रीणाम उपवेशने भागम अभजत्। सः तत्र विश्वस्य अनेकैः विदेशमन्त्रिभिः सह मिलितवान्। प्रमुख औद्योगिकीकृत लोकतन्त्राणां समूहस्य G7 इत्यस्य अध्यक्षः कनाडादेशः सहभागिरूपेण भागग्रहणाय भारतम् आमन्त्रितवान् आसीत्। श्रीजयशंकरः कनाडादेशस्य विदेशमन्त्रिणा अनीता आनन्देन सह मिलित्वा अवदत् यत्ते द्वयोः देशयोः मध्ये सम्बन्धाय 25-2000 नूतनस्य मार्गचित्रस्य कार्यान्वयने प्रगत्याः प्रशंसितवन्तौ। नियाग्रायां द्विदिवसीयसम्मेलनावधौ मन्त्री तस्य उपस्थितैः मन्त्रिभिः सह कूटनीतिकवार्ताम् आचरितवान्। सः अमेरिकादेशस्य विदेशसचिवेन मार्को लुबियो इत्यनेन सहापि मेलनं कृतवान्। क्रिकेटक्रीडायां कोलकातानगरस्य ईडन गार्डन्स क्रीडाङ्गणे दक्षिणाफ्रिकाविरुद्धस्य प्रथमनिकषक्रीडायाः प्रथमदिने भारतस्य आधिपत्यं वर्तते। अन्ते मुख्यवार्ताः पुनः एकवारम्। बिहारविधानसभानिर्वाचनाय सर्वेषां 43-200 यावत् विधानसभाक्षेत्राणां कृते मतानां गणना शान्तिपूर्वकं प्रचलति। सत्तारूढ एनडीए इति राष्ट्रिय जनतांत्रिक गठबंधनम् प्रचंड विजयस्य दिशायाम् अग्रे अस्ति। भाजपा दलस्य प्रत्याशी तथा उपमुख्यमंत्री सम्राट चौधरी तारापुर आसनं विजितवान्। तत्रैव राघोपुर आसने महागठबंधन पक्षस्य मुख्यमंत्री पदस्य प्रत्याशी आरजेडी दलस्य नेता च तेजस्वी प्रसाद यादव विजितवान्। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्र मोदी, भाजपाध्यक्षः जगत प्रकाश नड्डा, दलस्य वरिष्ठः नेता अमित शाहः बिहारस्य जनान् ऐतिहासिका भूतपूर्वाय च जनादेशाय धन्यवादं प्रदत्तवन्तः। अपि च क्रिकेट क्रीडायां कोलकाता नगरस्य ईडन गार्डन्स क्रीडाङ्गणे दक्षिणाफ्रिका विरुद्धस्य प्रथमनिकष क्रीडायाः प्रथमे दिने भारतस्य आधिपत्यं यथावदेव वर्तते इति वार्ताः।